इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दीपकः सोलंकी। आदौ मुख्य वार्ताः। अष्टादश लोकसभायाः प्रथमं सत्रं श्वः समारप्स्यते। अस्मिन् सत्रे नवनिर्वाचितानां संसत्सदस्यानां शपथग्रहणं भविष्यति। परीक्षा परिणाम विषये उत्थापितानां विवादानां कारणात् एनटीए इत्यस्य महानिदेशकः सुबोध कुमार सिंहः पदात् निष्कासितः। नीट यूजी राष्ट्रिय पात्रता सह प्रवेश परीक्षा सूच्यां कृपांकं प्राप्तानां त्रिषष्ट्युत्तर पञ्चशताधिक एकसहस्र छात्राणां पुनः परीक्षा अद्य संजाता। गृहमंत्री अमित शाहः देशे जलौघ प्रबंधनस्य समग्र सज्जतायाः समीक्षां करोति। विदेशमंत्री डॉ सुब्रमण्यम जयशंकरः अद्य संयुक्त अरब अमीरात देशस्य आधिकारिकी यात्रायां प्राप्तवान्। अपि च अद्य आईसीसी 2020 विश्वचषक क्रिकेट इति क्रीडा श्रृंखलायाम् उत्कृष्ट अष्टचक्रे अफगानिस्तान देशः ऑस्ट्रेलिया देशम् एकविंशति धावनांकैः पराजित्य समग्र क्रीडा अनुमानं परिवर्तितवान्। अथ वार्ताः विस्तरेण। अष्टादश लोकसभायाः प्रथमं सत्रं श्वः समारप्स्यते। अस्मिन् सत्रे नवनिर्वाचितानां संसत्सदस्यानां शपथग्रहणं भविष्यति। भाजपेति दलस्य वरिष्ठः सांसदः भर्तृहरि महताबः, यो नवलोकसभायाः प्रोटेम स्पीकर अर्थात् अस्थायी अध्यक्षरूपेण कार्यं करिष्यति, सः नवनिर्वाचितानां संसत्सदस्यानां शपथग्रहणं कारयिष्यति। नूतन लोकसभा अध्यक्षस्य निर्वाचनम् अस्मिन् मासस्य 26 दिनांके भविष्यति। एवं राष्ट्रपति पदासीना द्रौपदी मुर्मुः 27 दिनांके संसदि लोकसभायाः राज्यसभायाश्च संयुक्त सत्रं सम्बोधयिष्यति। अस्मिन् मासस्य 27 दिनांके राज्यसभायाः सत्रं समारप्स्यते। संसदः सत्रमिदं अग्रिम मासस्य 3 दिनांके समाप्तं भविष्यति। अयं कार्यक्रमः अस्माकं अन्तर्जालपटले newsonair.com अथ अस्माकं यूट्यूब पटलस्य प्रवाहिकायां newsonairofficial इत्यत्रापि उपलब्धो भविष्यति। परीक्षा परिणाम विषये उत्थापितानां विवादानां कारणात् एनटीए राष्ट्रिय परीक्षा अभिकरणस्य महानिदेशकः सुबोध कुमार सिंहः पदात् निष्कासितः। भारतीय व्यापार प्रवर्धन संघटनस्य अध्यक्षः एवं प्रबंधन निदेशकः प्रदीप सिंह खरोला अस्मै महानिदेशकस्य अतिरिक्त प्रभारं प्रदत्तः। नीट यूजी राष्ट्रिय पात्रता सह प्रवेश परीक्षा 44+2000 सूच्यां कृपांकं प्राप्तानां 3/60+5000 छात्राणां पुनः परीक्षा अद्य संजाता। राष्ट्रिय परीक्षा अभिकरणेन एनटीए इत्यनेन उक्तं यत् पुनः परीक्षा अपराह्ने 2 सायं 20+5 आसीत्। नीट इति नाम्ना स्नातक परीक्षायां कथितं प्रश्नपत्र दुर्घाटन प्रकरणे केन्द्रीय अन्वेषण ब्यूरो सीबीआई इत्यनेन प्राथमिकी पंजीकृतास्ति। सीबीआई इत्यस्य सूत्रानुसारं एषा प्राथमिकी शिक्षा मन्त्रालयस्य अनुरोधेण पंजीकृता जाता। व्यापक गवेषणायै वरतरा दुर्गोष्ठ्याः पटाक्षेपाय च अन्वेषण समवायेन आराष्ट्रे पंजीकृतान् प्रकरणान् स्व अधिकार क्षेत्रे आनेतुं कार्यं करोति। ह्यः शिक्षा मन्त्रालयेन ऐषमः वर्षस्य नीट परीक्षायाः प्रकरणं केन्द्रीय अन्वेषण ब्यूरो इत्यमुं हस्तान्तरण अनन्तरं उक्तवान् यत् सर्वकारः परीक्षासु शुचितां सुनिश्चेतुं छात्रहितान् रक्षयितुं प्रतिबद्धः अस्ति। मन्त्रालयेन पुनरेकवारं समुदीरितवान् यत् ये के जनाः अस्मिन् प्रश्नपत्र दुरुद्घाटन प्रकरणे संलिप्ताः लप्स्यन्ते तेषां विरुद्धं कठोर दण्डात्मकानि क्रियान्वयनानि भविष्यन्ति। राष्ट्रिय परीक्षा अभिकरणेन एनटीए इत्यनेन गतमासस्य 5 एषा परीक्षा आयोजिता आसीत्। संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। गृहमन्त्री अमितशाहः देशे जलौघ प्रबन्धनस्य समग्र सज्जतायाः समीक्षां कृतवान्। गृहमन्त्रिणः अमितशाहस्य अध्यक्षतायाम् अद्य नवदिल्लीनगरे देशे जलौघ प्रबन्धन सज्जतायाः विषये उच्चस्तरीय समीक्षोपवेशनं कृतम्। उपवेशने जलशक्ति मन्त्री CR पाटिलः, गृहराज्यमन्त्री नित्यानन्दरायः तथा विभिन्न मन्त्रालयस्य विभागसचिवाः भागं गृहीतवन्तः। अधुना झारखण्ड, हिमाचलप्रदेश, सिक्किम इत्यादिषु विभिन्नेषु राज्येषु भूस्खलन जलप्रलय सम्बद्धाः बह्व्यः घटनाः अभवन्। सम्प्रति असमदेशे जलौघस्य स्थितिः अस्ति। अनेकेषु मण्डलेषु लक्षाः जनाः प्रभाविताः अभवन्। गतमासे त्रिपुरे रेमाल चक्रवातेन महती क्षतिः अभवत्। विदेशमन्त्री डॉ सुब्रह्मण्यम जयशंकरः अद्य संयुक्त अरब अमीरात देशस्य आधिकारिक यात्रायां प्राप्तवान्। अस्मिन् अवधौ सः संयुक्त अरब अमीरातस्य विदेशमन्त्रिणा सह वार्तां करिष्यति, अपि च परस्पर सहभागितायाः व्यापकेषु विषयेषु चर्चां विधास्यति। विदेशमन्त्रालयेन उक्तं यत् अनया यात्रया भारत संयुक्त अमीरातयोः मध्ये सामरिक सहभागितायाः समीक्षा अथ क्षेत्रीयाणां वैश्विकाणां च घटनाक्रमेषु विचार विमर्शस्य अवसरं मिलिष्यन्ति। अद्य ICC अन्ताराष्ट्रिय 2020 विश्व चषक क्रिकेट इति क्रीडा श्रृंखलायां उत्कृष्ट अष्टचक्रे अफगानिस्तान देशः ऑस्ट्रेलिया देशम् 21 धावनांकैः पराजित्य समग्र क्रीडा अनुमानं परिवर्तितवान्। जमैका देशस्य किंगस्टन क्रीडांगणे प्रथम दण्डचालनं कृत्वा अफगानिस्तान देशः 20 कन्दुक प्रक्षेपण चक्रेषु 5 क्रीडकेषु 48.1 धावनांकानि अर्जितवान्। तस्य प्रतिक्रियारूपेण ऑस्ट्रेलिया देशः केवलं 4 कन्दुके 27.1 धावनांकानि अर्जितवान्। अद्य अमेरिका देशस्य इंग्लैंड देशस्य च प्रतिस्पर्धा भविष्यति। विशेष कार्यदल STF इत्यनेन अथ पश्चिम बंगाल आरक्षीदलेन शहादत इति नाम्नः आतंकवादी समूहः निगडितः। शहादत इति आतंकवादी समूहः बांग्लादेशे सक्रिय प्रतिबंधित आतंकवादी समूहः अंसार अल इस्लामस्य आनुषांगिक संघटनः अस्ति। ध्यातव्यम् अस्ति यत् अंसार अल इस्लामस्य सम्बद्धः कुख्यात अन्ताराष्ट्रिय आतंकवादी समूह अल कायदा इत्यनेन साकम् अस्ति। शहादत आतंकवादी समूहस्य प्रमुखः मुहम्मद हबीबुल्लाह गतरात्रौ पश्चिम बर्धमान जनपदस्य कांकसा क्षेत्रात् निगडितः जातः। अस्य समूहस्य उग्रवादिनः भारते, बांग्लादेशे च विभिन्नेषु उपद्रव गतिविधिषु सक्रियाः सन्ति। बहुजन समाज पार्टीति दलस्य अध्यक्षा मायावती अद्य 44-उत्तर-2000 लोकसभायाः परिणाम विषये समीक्षोपवेशनम् आयोजितवती। उत्तरप्रदेशस्य लखनऊ स्थिते दलीय कार्यालये आयोजिते अस्मिन् उपवेशने दलस्य समस्ताः राष्ट्रियस्तरीयाः पदाधिकारिणः सम्मिलिताः। प्रधानमन्त्री नरेन्द्रमोदी प्रख्यातस्य विचारकस्य एवं शिक्षाविदः डॉ श्यामा प्रसाद मुखर्जी तस्य वीरगति दिवसस्य अवसरे श्रद्धांजलिं प्रदत्तवान्। जनसंचार माध्यमेन श्रीमोदी उक्तवान् यत् डॉ मुखर्जी स्वस्य जीवनं भारत मातुः सेवायां समर्पितवान्। भारतस्य श्रीजा अकुला विश्व टेबल टेनिस अभ्यर्थी प्रतियोगितायाः एकल अन्तिमा क्रीडायाः प्रथमा भारतीया अभवत्। अधुना श्रीजा डिंग यीजी च अद्य सायंकाले एकल अन्तिम क्रीडायां परस्परं सम्मुखी भवतः। इति वार्ताः।